नमस्सर्वेभ्यः अद्य कोविद वर्गस्य पञ्चचत्वारिंशः पाठः अक्टोबर् मासस्य अष्टादशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मिनमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो निजन्ताः अस्माभिः गतवर्गद्वये अधीताः तेषु मुख्यानंशान् एकवारं पुनः परिशील्य अग्रे गच्छामः यत्र शब्दस्य अन्ते निच् इति प्रत्ययः भवति तादृशः शब्दः निजन्तः इति कथ्यते चोरी पाठी कारी इत्यादिषु यः ई इति श्रूयते सः निच् प्रत्ययस्य अंशः निजन्ताः शब्दाः धातवः भवन्ति अतः धातुरूपाणि तिङन्तरूपाणि कृदन्तरूपाणि च भवन्ति सामान्यतः तेषु रूपेषु अय इति श्रूयते तत्र ई इति निच् निजन्तात् शप् इति प्रत्ययः भवति अतः चोरी अ तस्य गुणः भवति चोरे अ एचो एवायावः इत्यनेन अयादेशे चोरय अतः णिच् केवलस्य णिचः अय इति न णिचः शपः च योजनेन अय इति भवति सामान्यतः सो पाठयति चोरयति कारयति नाशयति इत्यादीनि उदाहरणानि भवन्ति निच् इत्येषः प्रत्ययः दशमगणस्य धातुभ्यः स्वार्थे भवति सर्वेभ्यः धातुभ्यः प्रेरणार्थे भवति तत्र उभयोः अर्थे एव भेदः रूपे भेदः न भवति दशमगणस्य धातुभ्यः स्वार्थे णिच् भवति पुनः प्रेरणार्थे अपि णिच् भवति रूपं तु समानमेव इति ज्ञातवन्तः निजन्तरूपाणि कथं भवन्ति पाठयति अपाठयत् पाठयिष्यति इति लकारत्रये पाठयतु पाठयेत् लोट् विधिलिङ् पाठनीयं पाठयितव्यं पाठितवान् पाठितः पाठयित्वा प्रपाठ्य पाठयितुम् इत्यादि मुख्यकृदन्तरूपाणि अपि ज्ञातानि निजन्तानाम् उपयोगं कृत्वा वाक्यं कथं रचनीयम् इति गतवर्गे दृष्टवन्तः निजन्ते कर्तृद्वयं भवति एकः प्रेरककर्ता अथवा प्रयोजककर्ता यः कारयति यः वस्तुतः कार्यं करोति सः प्रेरितकर्ता अथवा प्रयोज्यकर्ता इत्युच्यते सामान्यतः यदा वयं कर्तरिप्रयोगं कुर्मः तदा प्रेरककर्तुः मुख्यः यः कर्ता यः प्रेरयति तस्मात् प्रथमा विभक्तिः भवति क्रियापदं प्रेरककर्तारम् अनुसरति गुरुः पाठयति गुरवः पाठयन्ति अहं पाठयामि त्वं पाठयसि एवं प्रेरककर्तारम् अनुसरति अन्येषु पदेषु अर्थात् मूलवाक्ये बहूनि पदानि सन्ति चेत् कुत्रापि परिवर्तनं न भवति प्रेरितकर्ता अथवा प्रयोज्यकर्ता यः अस्ति तत्रैव किञ्चिदिव चिन्तनं भवेत् द्वितीया विभक्तिः वा तृतीया विभक्तिः वा इति तत्र केचन विशेषधातवः सन्ति नाययति वाहयति आदयति खादयति एतेषां चतुर्णां प्रयोगे तृतीया एव भवति दर्शयति इत्यस्य प्रयोगे द्वितीया भवति प्रेरितकर्तुः अन्यत्र पञ्चवर्गाः सन्ति गति बुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाः गत्यर्थकाः धातवः धातूस् विच् इण्डिकेट् मूव्मेण्ट् बुद्ध्यर्थकाः धातूस् विच् मीन् टु नो टु अण्डर्स्टाण्ड् प्रत्यवसानार्थकाः धातूस् विच् मीन् टु ईट् और् ड्रिङ्क् शब्दकर्माणः धातूस् इन् विच् द कर्म इस् अ इन् द फार्म् आफ् सौण्ड् शब्द అండ్ అకర్మక ఇంట్రాన్సిటివ్ వర్బ్స్. ఏతేషాం ప్రయోగే ప్రేరితకర్తుః ద్వితీయా భవతి, అన్యత్ర తృతీయా భవతి ఇతి నిర్ణయః. ఏతదాధారేణ క్రమశః కథం పరివర్తనం ఇత్యపి దృష్టవంతః. పాండవాః వనం అగచ్చన్ ఇతి ఏకం వాక్యం. దుర్యోధనః ప్రేరకకర్త, పాండవాః ప్రేరితకర్తారః. ఆదౌ యః నిజంతకర్త అథవా ప్రేరకకర్త ప్రథమా విభక్తౌ, తదాధారేణ క్రియాపదం. సో దుర్యోధనః అగమయత్, పాండవాః ఇత్యత్ర బహువచనమస్తి ఇత్యతః అగచ్చన్ ఇత్యస్తి. కింతు నిజంతే దుర్యోధనః ఇతి ఏకవచనం, అతః అగమయత్ ఇతి. ద్వితీయ స్తరే కర్మపదం, మూలతః వాక్యే యత్ కర్మపదం తత్ తథైవ యోజనీయం. ద్వితీయా విభక్తిః పరివర్తనం న భవతి. దుర్యోధనః వనం అగమయత్, తతః ప్రేరితకర్త. తృతీయా భవేద్వా ద్వితీయా భవేద్వా ఇతి ప్రశ్నే గచ్చతి ఇతి గత్యర్థక ధాతుః, అతః ద్వితీయా భవతి. దుర్యోధనః పాండవాన్ వనం అగమయత్ ఇతి వాక్యం భవతి. గృహకార్యే ప్రథమం ఆసీత్ కేవలం నిజంత రూపం లేఖనీయం, యేన తదాధారేణ క్రియాపదస్య లేఖనం, ప్రేరకకర్తారం ఆశ్రిత్య క్రియాపదస్య లేఖనం భవేత్ ఇతి. అత్ర కశ్చిత్ ప్రశ్నః, ఇజంట్ ఖాద్ ఆల్సో ప్రత్యవసానార్థక? ఎస్, సిన్స్ ఖాద్ ఈజ్ ప్రత్యవసానార్థక, ఇట్ షుడ్ హ్యావ్ బీన్ ద్వితీయ, బట్ దెర్ ఇస్ అ స్పెషల్ రూల్ విచ్ గివ్స్ తృతీయ ఫర్ బోత్ అద్ అండ్ ఖాద్. అత్తి ఖాదతి దే ఆర్ ప్రత్యవసానార్థకాస్, నయతి వహతి ఆర్ గత్యర్థకాస్. సో యాక్చువల్లీ బై దిస్ రూల్ ఇట్ షుడ్ హ్యావ్ బీన్ ద్వితీయ, బట్ దెర్ ఆర్ స్పెషల్ రూల్స్ విచ్ సే దట్ దీస్ ఆర్ ఎక్సెప్షనల్ కేసెస్ వేర్ దెర్ ఇస్ తృతీయ. అత్ర ఏ వక్తుమిచ్చంతి కృపయా హస్తమున్నయంతు. సో జస్ట్ ద నిజంత క్రియాపద, యూ డోంట్ హ్యావ్ టు కన్వర్ట్ ద కర్త హియర్, జస్ట్ పఠతి ఇత్యస్య నిజంతే గురుః కిం కరోతి ఇది వక్తవ్యం. సుధా భగిని,
బాలాః పఠంతి గురుః పాఠయతి.
పాఠయతి గురుః పాఠయతి, సమ్యక్.
వదామి వా?
ఆం వదతు.
అహం పశ్యామి, త్వం దర్శయసి.
దర్శయసి, సమ్యక్. అహం పశ్యామి, త్వం దర్శయసి. శ్రీమతి భగిని.
ఆం, తే యచ్ఛంతి వయం దాసి
దాతి ఇత్యస్య నిజంతే దాప్,
దాపయామః.
దాపయామః, సమ్యక్. వయం దాపయామః.
బాలికాః గీతవత్యః, ఏషః గాపయతి.
అక్తవతు,
గాపయతి. గీ గాపితవాన్,
ఏషః గాపయతి. మయాపి దోషేణైవ లిఖితం. ఏషః గాపితవాన్ ఇత్యేవ వివక్షితం, యతోహి తత్ర తవతు ప్రత్యయాంతం అస్తి. తే హసిష్యంతి మిత్రం.
హసిష్యంతి
మిత్రం,
మిత్రం హాసిష్యతి.
హాసయిష్యతి, హాసయిష్యతి. సో ఫ్రెండ్ విల్ మేక్ దెమ్ లాఫ్, హాసయిష్యతి, సమ్యక్. అగ్రిమం రావు మహోదయ.
యా, గుడ్ మార్నింగ్ ఆర్ గుడ్ ఈవినింగ్, వాట్ ఎవర్ ఇట్ ఇస్. మృగాః ధావితవంతః, వ్యాధః आवित यत् धावितयति
धावितवान् धावयति इति लट्लकारे बट् सिन्स् दिस् इस् क्लवतु धावितवान् मृगाः धावितवन्तः व्याधः धावितवान् मेड् देम् रन्
क्षुधिताः भुक्तवन्तः धनिकः भुक्तयन्ति
भोजयति
भोजयति
तव तु वी विल् हाव्
यु हाव् टु ट्रान्स्फार्म् दि कृत्पचिया टु निज्
निजन्त इन्तु क्तवतु यस् भोजयति इत्यस्य भोजितवान् क्षुधिताः भुक्तवन्तः धनिकः भोजितवान् फेड् देम् और् मेड् देम् ईट् इत्यर्थः अग्रे लक्ष्मी भगिनी You have to unmute yourself. Chambaka Lakshmi. You have to unmute yourself by clicking on the microphone.
Maya Gantavyam. त्वया गमितव्यम्
सम्यक् त्वया गमयितव्यम् सो गमयति अग्रिमम्
सर्वैः स्मरणीयं नायकेन स्मारणीयम्
सम्यक् नायकेन स्मारणीयम् उत्तमम्
पिता कृतवान् पिता कृतवान् माता कार्यं कृतवान् कारितवती
सम्यक् माता कारितवती उत्तमम् सो वन् इस् टु कन्वर्ट् द निजन्त इन् लट्लकार ओन्ली सो फस्ट् लेवल् यु हाव् टु प्राक्टिस् दट् पठति पाठयति गच्छति गमयति बट् देन् यु शुड् आल्सो ट्रै प्राक्टिसिङ्ग् वित् तवतु आर् वित् अनियर् एट्सेट्रा तदा सुलभं भवति अत्र जस्ट् वन् मोमेण्ट् अग्रे गच्छामः अग्रिमं पूर्णस्य वाक्यस्य निजन्तत्वेन परिवर्तनं करणीयं वाक्यं निजन्तेन आदौ एकं वा वाक्यद्वयं क्रमशः कुर्मः अनन्तरं पूर्णस्य वाक्यस्य परिवर्तने प्रयत्नं कुर्मः टिल् यु आर् यूस् टु इट् प्लीस् गो स्टेप् वैस् इट् इस् आल्वेस् ईजियर् सो देट् यु विल् नाट् गो राङ्ग् अविनाश् महोदय
गुड् मार्निङ्ग् महोदय बालः खादयति
सम्यक् सो आदौ बालः खादयति
बाल कदलीफलानि खादयति
उत्तमम्
और् बिकास् इट् इस् खाद् इट् विल् बि it will be tritiya.
Samyak.
So बाल वानरैहि कदलि फलानि खादयति.
बहु उत्तमं. खादयति इति विशिष्ट धातुः, तत्र तृतीया भवति इति स्मर्तव्यम्. अतः बालः वानरैः कदलीफलानि खादयति. द बॉय मेक्स द मंकीज ईट बनानास इत्यर्थः. सम्यक्. अग्रिमं वाक्यमस्ति, अत्र खादयति इति विशेष धातुः, तत्र तृतीया भवति. अग्रिमं, नार्यः शाटिकां दृष्टवत्यः. उमादेवी भगिनी
नमस्कार. आपणिकः दृष्टवत्यः दर्शयति.
तवतु
दर्शितवान्.
सम्यक्. आपणिकः दर्शितवान्.
दर्शितवान् आपणिकः. आपणिकः शाटिकां दर्शितवान्.
उत्तमम्.
आपणिकः नारीः शाटिकां दर्शितवान्.
उत्तमं. दर्शयति इत्यस्य प्रयोगे द्वितीया भवति, सः अपि विशेषधातुः, अतः द्वितीया भवति. नारीं नार्यौ नारीः. सो आपणिकः नारीः शाटिकां दर्शितवान्. द शॉपकीपर शोड द सारीस् सारी टु द विमेन. सम्यक्. अग्रिमं वाक्यं, वयं काशीं यामः. पुत्रः इति कर्ता. चन्द्रशेखरन् महोदय
नमस्ते. पुत्रः याति या यायति
पकारः भवति.
यापयति यापयति.
पुत्रः यापयति.
पुत्रः काशीं यापयति. पुत्रः अस्मान् काशीं यापयति.
कथं द्वितीया?
गत्यर्थः.
गत्यर्थकः धातुः याति इति, अतः पुत्रः अस्मान् काशीं यापयति. गत्यर्थकत्वात् द्वितीया भवति. सम्यक्. अग्रिमं, जयश्री भगिनी.
नमस्ते भगिनी. सर्वे क्रमशः उपविशेयुः. भवान् उपविशेयुः भगिनी कथम् अस्ति?
उपविशति इत्यस्य किं भवति? उपवेशयति.
उपवेशयति
तस्य विधिलिङ्ग. उपवेशयेत्.
उपवेशयेत्. भवान् सर्वैः क्रमशः उपविशयेत्.
सर्वैः क्रमशः उपवेशयेत्. कथं तृतीया?
I think it's just sitting, so there is no apavada applicable.
The apavada has what? Gati, buddhi, pratyavasana, shabda karma, and
akarmaka.
Akarmaka. It is an akarmaka dhatu.
Sarvan.
Sarvan, bhavan, sarvan, kramashaha, upaveshayet. So you should make everybody sit in order. So everybody should sit in order. You should make everybody sit in order. So atra upaveshayati iti akarmaka dhatuhu, ataha dvitiya bhavati. Samyak. Agre. Mahalakshmi.
Namaste. नायकः चोरयति.
सम्यक्.
नायकः आभरणानि चोरयति. अकर्मकधातु. सो
नायकः
अकर्मकः
आभरणानि, दे स्टील द ज्वेल्स्, द there is the karma pada.
Anucharaihi abharanani, nayakah anucharaihi abharanani chorayati.
Samyak. Nayakah anucharaihi abharanani chorayati. So the leader makes the followers steal the jewels. So chorayati iti samanya dhatu, which means it is not in the list of vishesha dhatus and not in gati, buddhi, pratyavasana, shabda karma, akarmaka. And therefore it is tritiya vibhakti. Agrimam. Priya Bhagini.
Devaha amritam pibanti. Shri Harihi payayati. Shri Harihi amritam payayati. Shri Harihi devan amritam payayati.
Samyak. Katham dvitiya?
Bhojanartaka.
Samyak. Bhojanarthakah dhatuhu. So both eating, drinking, everything is included. So Shri Harihi devan amritam payayati makes the gods, devas drink amrita. So bhojanarthakatvat dvitiya vibhaktihi. Uttamam. Agrimam. Ramanujam Mohode.
Namaste. Chatraha kavyam patanti guruhu patayati. And then guruhu kavyam patayati. Guruhu chatraihi va chatrabihi kavyam patayati.
Katam tritiya?
Patana karyam, right?
So patanam is to read, or rather to patha vyaktayam vachi. So to read aloud is patanam.
Okay, is that
patana is always shabda karma. Okay, that
is not okay.
To learn. When you are reading something, when you are reading it aloud, what you are reading is actually words. So,
okay.
Pachayati, it is always dvitiya.
Okay. Then it should be chatraha in both cases, right? Both.
Chatran or chatraha.
Chatran or chatraha.
So, if it is only girls, chatraha or chatran kavyam pachayati. So, basically makes them read aloud the kavya, because patati is very clearly vyaktayam vachi. It is to read out loud, okay, not the reading which you would say you can do silently probably in this one, but the dhatu patati is used only in that sense. So shabda karma kaha ataha dvitiya vibhakti.
Dhanyavada.
Chatraha kavyam likhanti. Anybody else wants to try? Those who have not tried so far? Rahul.
Chatraha kavyam likhanti guruhu. Guruhu lekhayati. Guruhu kavyam lekhayati. Guruhu chatraihi kavyam lekhayati.
Samyak. Chatraihi lekhayati. So when you are writing, it is not shabda, not sound, and it does not belong to any other categories, gati, buddhi, etc. Therefore, it is tritiya. Chatraihi kavyam lekhayati. Samyak. Agrimam. Chatraha kavyartham avagachanti. Ramanathan Mohanaya.
Guruhu avagacchanti.
Gacchati is nijant of gacchati. Gamayati.
Gamayati, okay.
So avagamayati.
Avagamayati.
Samyak.
Avagamayati. గురుః కావ్యార్థం అవగమయతి. గురుః ఛాత్రైః కావ్యార్థం అవగమయతి.
వైతృతీయ
ఇట్స్ ఓన్లీ అండర్స్టాండింగ్, నాట్ శబ్ద.
ఇట్స్ నాట్ శబ్ద కర్మ, బట్ వాట్ ఆర్ ద అదర్ కేటగిరీస్? గతి,
గతి
బుద్ధి, టు నో ఆర్ టు అండర్స్టాండ్. సో బికాస్ ఇట్ ఈస్ అ బుద్ధ్యర్థ కథాతు జానాతి అవగచ్చతి ఎట్సెట్రా, దేర్ఫోర్ యు విల్ విత్ ద్వితీయ. ఛాత్రాన్ కావ్యార్థం అవగమయతి ఇత్యత్ర ద్వితీయ. సో టు సే తృతీయ, దర్ ఇస్ ఓన్లీ వన్ వే, ఇస్ టు ఎలిమినేట్ ఎవ్రీథింగ్ ఎల్స్. ఓకే, యూ కెనాట్ సే తృతీయ వితౌట్ ఎలిమినేటింగ్. సో ఇన్ ద ఇనీషియల్ స్టేజెస్ అట్లీస్ట్ యూ షుడ్ టెల్ దెమ్ అవుట్ లౌడ్ వన్ బై వన్. సే ద ఫైవ్ స్పెషల్ ధాతుస్, సే నాయయతి, వాహయతి, ఆదయతి, ఖాదయతి, దర్శయతి. ఓకే, నో, దెన్ గతి, బుద్ధి, ప్రత్యవసాన, శబ్దకర్మ, అకర్మక. If you say out loud and then you map to each, it will be clear. Okay, so you can, if you think only of one category, you may be missing some other category. So any of these will get dvitiya, and tritiya can only be after you have eliminated all possible dvitiyas. Okay, antimam vakyam Subramanyam Mahadev.
Namaste. యువకః చాలయతి. యువకః వేగేన చాలయతి. యువకః యానం వేగేన చాలయతి.
వై ద్వితీయ.
గత్యర్థకః ద్వితీయః.
సమ్యక్. సో చలతి ఇది వస్తుతః తత్ర అకర్మకః అపి అస్తి, గత్యర్థకః అపి అస్తి. సో టు మూవ్ ఇస్, దేర్ ఇస్ నో కర్మ, అండ్ ఇట్ ఇస్ ఆల్సో గత్యర్థక. సో ఈదర్ వే ఇట్ ఇస్ ద్వితీయ. యానం వేగేన చాలయతి, సో డ్రైవ్స్ ద వెహికల్ ఫాస్ట్. సమ్యక్. సో ఏవమేవ అభ్యాసం కుర్వంతి చేత్ నిశ్చయేన దోషాన్ వినా నిజంతానాం ప్రయోగం కర్తుం శక్యతే. అత్ర కేపి ప్రశ్నాః సంతి వా? సో ఐ లోవర్ ఆల్ హ్యాండ్స్, ప్లీజ్ రేజ్ ఓన్లీ ఇఫ్ యూ హ్యావ్ ఎనీ క్వశ్చన్స్ స్పెసిఫిక్ టు నిజంతాస్. నిజంతానాం విషయే, తేషాం ప్రయోగ విషయే కుత్రచిత్ ప్రశ్నః సందేహః అస్తి చేత్ హస్తమున్నయతు, నో చేత్ అగ్రే గచ్చామః. అగ్రిమః విషయః అస్తి సన్నంతాః ఇతి. సో ఆదౌ ద్విత్రాణి ఉదాహరణాని పశ్యామః సన్నంతానాం. రామః గచ్చతి, రామః గంతుం ఇచ్చతి, వాంట్స్ టు గో. తత్ర గంతుం ఇచ్చతి ఇత్యర్థే రామః జిగమిషతి. సయేవ అర్థః, గంతుం ఇచ్చతి ఇత్యేవ అర్థః. ఇట్ ఈస్ అ సింగల్ వర్డ్ విచ్ క్యాన్ ఎక్స్ప్రెస్ ద డిసైర్ టు డూ సంథింగ్. గంతుం ఇచ్చతి జిగమిషతి. బాలాః పఠంతి, బాలాః పఠితుం ఇచ్చంతి. సో పఠితుం ఇచ్చంతి ఇత్యత్ర పిపఠిషంతి. బాలాః పిపఠిషంతి, ద బాయ్స్ వాంట్ టు స్టడీ, డిజైర్ టు స్టడీ. సో ఏవం ఇచ్ఛార్థే, ద డిజైర్ టు డూ సంథింగ్, తస్మిన్ అర్థే సన్ ఇది కశ్చిత్ ప్రత్యయః భవతి. సన్ ప్రత్యయః యస్య శబ్దస్య అంతే భవతి సః సన్నంతః ఇది కథ్యతే. సో లైక్ నిజంత వి హ్యావ్ సన్నంత, సన్ ఈజ్ అ ప్రత్యయ. సో సామాన్యత రూపేషు స అథవా ష इति भवति. जिज्ञास पिपठिष सुषुप्स चिकीर्ष सुष स एतत् सर्वमपि सन् प्रत्ययस्य रूपं भवति. सन्नन्ताः अपि धातवः, यथा निजन्ताः धातवः एवं सन्नन्तशब्दाः अपि धातवः भवन्ति. अतः सर्वलकाररूपाणि दशसु लकारेषु रूपाणि भवन्ति, कर्तरि कर्मणि भवन्ति, कृदन्तरूपाणि अपि भवन्ति. सो जस्ट् लैक् निजन्तस्, सन्नन्तस् विल् आल्सो हाव् आल् फार्म्स्, आल् लकारास्, आल् कृदन्तस् एट्सेट्रा. यथा लकाररूपाणि पिपठिषति इति लट्लकारे, पठितुम् इच्छति. पिपठिषतु पठितुम् इच्छतु. अपिपठिषत् सो पठितुम् इष्टवान् इत्यर्थे भूतकाले. पिपठिषेत् शुड् लैक् टु स्टडि. एवं सर्वेषु लकारेषु रूपाणि भवन्ति. कृदन्तरूपाणि अपि पिपठिषा पठितुम् इच्छा. पिपठिषुः पिपठिषिता, यः पठितुम् इच्छति सः. यथा पठिता इति तृच् भवति, एवं पिपठिषिता. पिपठिषन् सन् शतृ प्रत्ययः. एवं सर्वाणि कृदन्तरूपाणि अपि भवन्ति. किन्तु इदानीं कोविदस्तरे रूपत्रयम् एव ज्ञातव्यं भवति. एकं तु पिपठिषति इति लट्लकारस्य रूपं, पठितुम् इच्छति पिपठिषति. एवमेव कृदन्ते रूपद्वयं पिपठिषा पिपठिषुः. पिपठिषा पठितुम् इच्छा, पिपठिषुः पठितुम् इच्छुः इति रूपत्रयं वयम् इदानीं ज्ञातुं शक्नुमः. बिकास् दिस् इस् द फस्ट् टैम् वि आर् स्टडिङ्ग् सन्नन्तस्, वि विल् ट्रै टु नो three forms. So with these you will be able to use sannantas in a variety of cases. And when I say lat, of course it is like patati patataha patanti, pipatishati pipatishataha pipatishanti ityadi. Atra kinchit pashyamaha mukhyataha kim nyatavyam. Atra vigraha vakyam purnam rupam, patitum ichchati pipatishati iti rupam. So pipatisha इति सन्नन्तः धातुः, लट् लकारे तिङन्तरूपं पिपठिषति. सो पठति पठतः पठन्ति इति यथा, तथा पिपठिषति पिपठिषतः पिपठिषन्ति. पिपठिषसि पिपठिषतः पिपठिषथ. पिपठिषामि पिपठिषावः पिपठिषामः. रेग्युलर् फार्म्स् इन् लट् लकार. So if you want to say I wish to study, aham pipathishami, vayam pipathishamaha, tavat upayoktum shakyate. Tataha pathitum ichha pipathisha, the desire to read, we call it bhave. So just like you have pathanam is the act of reading, pipathisha is the desire to read. Tavadeva, it is not the person, it is the desire itself is expressed by pipathisha. Atrapi pipathisha iti sannanta dhatuhu, a iti pratyayah bhavati, kridanta shabdaha, pipathisha iti kridanta shabdaha strilinge bhavati. So pipathisha, akaranta strilingaha, rama shabdavat, anyasu vibhaktishu abhi prayogaha kartum shakyate. अग्रे दर्शयामि पिपठिषा इति शब्दस्य अन्य विभक्तिषु प्रयोगः कर्तुं शक्यते. एवमेव पठितुम् इच्छुः पिपठिषुः, कर्त्रर्थे अयं प्रत्ययः. पिपठिष इति सन्नन्तधातोः उ इति प्रत्ययः भवति. अयमपि कृदन्तशब्दः. यः पठितुम् इच्छति अथवा या पठितुम् इच्छति तस्य पिपठिषुः इति भवति. उकारान्तशब्दः, लैक् गुरुशब्द आर् धेनुशब्द, डिपेण्डिङ्ग् आन् द लिङ्ग यु केन् यूस् इट्. ओके, सो పిపఠిషు ఏవం పిపఠిషతి పిపఠిషా పిపఠిషు ముఖ్య ధాతూనాం రూపత్రయం అస్మాభిః జ్ఞాతవ్యం. సో ఓకే, బహవః ప్రశ్నాః సంతి ఇతి భాతి. ఏకం క్షణం. Unable to understand the difference between first and second. Which first and second do we mean here? I'm not sure where. Here, pipathishati is like pathati. He, somebody, that is a third person, wants to read. So, pipathishasi is you want to read. Pipathishami is I want to read. So, it is a associated with the karta. Somebody is liking to read, whether it is the third person, second person or first person. But pipathisha is just the desire to read. Okay. Agre vakyani pashyamaha chet itopi spashtam bhavati kaha arthe bhedaha iti. Is pipathishuhu like pathita? As in the artha is the same. So, పాచకః పఠితా ఇత్యాది కర్తృర్థక ప్రత్యయానాం యః అర్థః సయేవార్థః పిపఠిషుః. సో ద పర్సన్ హూ వాంట్స్ టు రీడ్ ఇత్యర్థః. రూపం తు భిన్నం భవతి. ద ప్రత్యయ హియర్ ఇస్ ఉ. సో పిపాసా ఇతి సత్యం. పాధాతోః పిపాసా ఇతి భవతి. ఓకే. సో అత్ర ఆదౌ the main part to understand is the rupas. Okay. Tatra sannanteshu rupa siddhi, to derive the forms you will need to know some more rules. Okay. So one common feature in sannantas is of course the dvitva. San yangoho iti sutram asti, ataha sannante dhatoho dvitvam bhavati. Just like in litlakara you have a dvitva, the sun pratyaya itself governs dvitva. There is no it samya for it. The sun pratyaya itself, sannantasya dvitvam bhavati ityeva sutram asti. So there will always be a doubling of the initial letter, okay, initial part of the dhatu. And there are some modifications also which happen. So we are not going into details of derivations of sannantas here. But we need to know the forms of common rupas. One way is to read. It's a drill. In the initial times, if you just read, slowly you will yourself come across a pattern. Okay. Ekavaram atra pathamaha. I'll share this sheet. It has about 30 dhatus. Actually, a few more than in the textbook also. All the dhatus which are given in the textbook and a few more. So just read these for a few days, maybe daily once or daily twice. You will be familiar with the forms. Okay. As you become familiar, there are some patterns which you can identify. So if you are interested, I'll point out at the end of the class what are the general things which happen. But for now, you just have to read these. Say pathati, pipathishati, pipathisha, pipathishuhu. Gachati, jigamishati, jigamisha, jigamishuhu. Rakshati, రిరక్షిషతి రిరక్షిషా రిరక్షిషు. ధావతి దిధావిషతి దిధావిషా దిధావిషు. ఖాదతి చిఖాదిషతి చిఖాదిషా చిఖాదిషు. వందతే వివందిషతే వివందిషా వివందిషు. మోదతే ముమోదిషతే ముమోదిషా ముమోదిషు. శోభతే శుశోభిషతే शुशोभिषा शुशोभिषुः वर्धते विवर्धिषते विवर्धिषा विवर्धिषुः पिबति पिपासति पिपासा पिपासुः जानाति जिज्ञासते जिज्ञासा जिज्ञासुः याति यियासति यियासा यियासुः पश्यति दिदृक्षते सो द धातु इज दृश सो फ्रॉम दृश वी हैव दिदृक्षते दिदृक्षा दिदृक्षुः वक्ति विवक्षति विवक्षा विवक्षुः पचति पिपक्षति पिपक्षा पिपक्षुः मुञ्चति मुमुक्षति मुमुक्षा मुमुक्षुः भुङ्क्ते बुभुक्षते बुभुक्षा बुभुक्षुः युङ्क्ते युज् धातुः सो द धातु इस् देर् बिकास् यूजुवली इट् इस् इम्पोर्टेण्ट् टु नो द धातु सो युज् युयुज् सो युयुक्षते युयुक्षा युयुक्षुः करोति चिकीर्षति चिकीर्षा चिकीर्षुः तरति तितीर्षति तितीर्षा तितीर्षुः स्वपिति सुषुप्सति सुषुप्सा सुषुप्सुः भवति बुभूषति बुभूषा बुभूषुः लिखति लिखति हस् टू फॉर्म्स इन सन्नंत लिलिखिषति एंड लिलेखिषति सिमिलरली लिलिखिषा लिलेखिषा लिलिखिषुः लिलेखिषुः ददाति दित्सति दातुम इच्छति डिजायर्स टू गिव इज दित्सति दित्सा दित्सुः जयति जिगीषति जिगीषा जिगीषुः हन्ति जिघांसति जिघांसा जिघांसुः आप्नोति ईप्सति सो ईप्सा आप्तुम इच्छा ईप्सा डिजायर टू गेट समथिंग सो ईप्सुः शृणोति शुश्रूषते शुश्रूषा शुश्रूषुः गृह्णाति जिघृक्षति जिघृक्षा जिघृक्षुः अत्ति खादति इत्यर्थः जिघत्सति जिघत्सा जिघत्सुः फर्स्ट स्टेप इज टू फेमिलियराइज योर सेल्फ विद द प्रयोगास सो सन्नन्तानां संस्कारः किञ्चित् भवेत् व्याकरणदृष्ट्या परिशीलनात् पूर्वम् ऑलवेज बिफोर वी गो इन टू व्याकरण वी शुड बी फेमिलियर विद द प्रयोग तदेव मुख्यं भवति अतः एतेषां धातूनां रूपाणि कृपया पुनः पुनः पठन्तु तेन तत्र परिचयः भवति तदनन्तरं कथं रूपं भवति इति चिन्तनम् अग्रिमस्तरे एव कर्तुं शक्यते ओके सो वी विल गो बैक वी हैव सीन द सन्नंत रूपास ऑफ सम इम्पोर्टेंट धातुस् तत्र किञ्चित् अभ्यासं कुर्मः विग्रहवाक्यं वक्तव्यं यथा जिगमिषति इत्यस्ति चेत् गन्तुम् इच्छति चिखादिशति सो ट्रै टु गेस् ऐ मीन् द ओरिजिनल् फार्म् आफ् द धातु विल् डेफिनेट्लि बी देर् ओके सो इन् बिट्वीन् यु लीव् आफ् द फस्ट् लेटर् एण्ड् देन् इफ् यु लुक् एट् इट् मोस्ट्लि द धातु विल् बी देर् इट् विल् बी चेञ्ज्ड् इन् सम् केसस् बट् मोस्ट्लि इट् विल् बी देर् सो चिखादिष्टति राजलक्ष्मी भगिनी
खादितुम् इच्छति चिखादिशति
खादितुम् इच्छति चिखादिशति सम्यक् बुभुक्षते
भोक्तुम् इच्छति
सम्यक्
भोक्तुम् इच्छति बुभुक्षते
उत्तमं भोक्तुम् इच्छति बुभुक्षते रामनाथन महोदय
कर्तुम् इच्छा
कर्तुम् इच्छति चिकीर्षति प्रेप्सति
प्रेप्सति
slightly different
प्राप्तुम् इच्छा
सम्यक् प्राप्तुम् इच्छति प्रेप्सति सो आप्तुम् इच्छति इज ईप्सा सो जस्ट एड प्र टू इट प्रेप्सा इज प्राप्तुम् इच्छति रामकृष्णराव महोदय
दातुम् इच्छति
हाँ दित्सति दातुम् इच्छति दित्सति
पिपक्षति पातुम् इच्छति
पक्तुम्
इच्छति पक्तुम् इच्छति पिपक्षति पातुम् इच्छति पासयति
पिपासति राइट सो पिपासा इज पातुम् इच्छा वेयरएज दिस इज पक्तुम् इच्छा इज पिपक्षति वांट्स टू कुक ओके सो वी आर इमीडिएटली विथ पिपासा नाउ फॉर पिपासा
पातुम् इच्छति
ना पिपासति इज पातुम् इच्छति पिपासा इज
पातुम् इच्छा
इच्छा सो पातुम् इच्छा पिपासा
जिज्ञासा ज्ञातुम् इच्छा
ज्ञातुम् इच्छा जिज्ञासा उत्तमम् सुब्रह्मण्यम् महोदय
श्रोतुम् इच्छा
श्रोतुम् इच्छा शुश्रूषा वस्तुतः शुश्रूषा शब्दस्य रूढ्या सेवा इत्यर्थः अस्ति द डिजायर टू सर्व एज इन सर्विंग अदर्स इत्यर्थे अपि शुश्रूषा शब्दः अस्ति श्रोतुम् इच्छति इत्यपि शुश्रूषते इत्येव भवति इट इज यूज्ड इन बोथ सेंसेस विवर्धिषा सुब्रह्मण्य महोदय
वर्धितुम् इच्छा
सम्यक् वर्धितुम् इच्छा विवर्धिषा उत्तमम् सुधा भगिनी
विवक्षा वक्तुम् इच्छा
वक्तुम् इच्छा विवक्षा
लिप्सा लिह इज इट लिह धातु
लभ
लब्धुम्
इच्छा लिप्सा
लिप्सा
सम्यक् नेक्स्ट अविनाश महोदय
मुमुक्षुः मोक्तुम् इच्छुक
इच्छुः मोक्तुम् इच्छुः मुमुक्षुः सो द विग्रहवाक्य एंड इट द सेम वे एज द पद ओके सो इफ इट इज मुमुक्षति मोक्तुम् इच्छति मुमुक्षा मोक्तुम् इच्छा अर्थः समानः वक्तुं शक्यते दोषः नास्ति बट् सिन्स् यू हाव् इट् इट्स् ईजियर् टु यूस् द सेम्
ओके मोक्तुम् इच्छु जिगमिषुः जिगमिषुः गन्तुम् इच्छुः
सम्यक् गन्तुम् इच्छुः जिगमिषुः उत्तमम् लक्ष्मी भगिनी यू हेव टु अन्म्यूट् युर् सेल्फ् यु हेव टु क्लिक् आन् द मैक्रोफोन् देर्स् अ रेड् मैक्रोफोन् सिम्बल् नो महालक्ष्मी
कर्तुम् इच्छुः
हा तर्तुं taritum, taritum, rupani. It's fine. Tartum is also there. So, tartum ichchuhu, titirshuhu, desire to cross. He who desires to cross.
I don't know the dhatu.
Swapiti.
Swaptum ichchuhu.
Swaptum ichchu. Swaptum ichchuhu sushupsuhu. Samyak. Jayashri.
Hatum ichchuhu.
Hantum
ichchuhu. Hantum ichchuhu.
Hantum ichchuhu jighamsuhu.
Drashtum ichchuhu didrakshuhu.
Drashtum ichchuhu didrakshuhu. Samyak. Evam mukhya dhatunam rupanam parichayaha praptavyaha. Tataha vakye katham prayogaha iti kinchit pashyamaha. So very few examples because it's not elaborated much. Balaha pipathishanti. Patitum ichchanti pipathishanti. Balanam pipathisha vidyate. So boys have the desire to study. So pipathisha patitum iccha asti ityartha. Balaha pipathishaya shalam gacchanti. So you can also use this pipathisha in other vibhaktis. So pipathishaya shalam gacchanti. They go to school with the desire to study. So pipathishaya. Balaha pipathishavaha. So boys desire are the ones who desire to read. Okay. So evam pashyamaha chet pipathishanti pipathishavaha ityatra samanam iva bhati. Kintu this pipathishu. Pipathishavaha is the bahuvachana of pipathishu. Pipathishuhu pipathishu pipathishavaha. Okay. Kintu etat visheshanatvena prayoktum shakyate. You can use it in other vibhaktis also. Udaharanartham pipathishun balan guruhu pritya pathayati. So the teacher affectionately teaches the boys who have the desire to read. So this you cannot make it with just tinganta. Okay. When you just say balaha pipathishanti or balaha pipathishavaha, the meaning is approximately the same. The boys desire to read. But when you are using this pipathishu as a kridanta, you can use it as a visheshana. Pipathishubhyaha balebhyaha pustakani dadmaha. Pipathishunam balanam namani janimaha. Whatever. I mean, you can use it in any vibhakti as a visheshana to bala. Okay. Evam vakyani kartum shakyante ekam laghu abhyasam kurmaha. Atra e padani yojayitva sannantarupam vaktavyam. Aham katham patitum ichhami. Atra kim bhavet. Champaka Lakshmi. You have to unmute yourself.
Aham katha pipathishami.
Aham katham pipathishami. Samyak. Mama mata mam drashtum ichhati. Chandrasekharan Mahodaya.
Mama mata mam didrakshati.
Didrakshate. Didrikshate. So padavishaye agre vakshyami. Samyak agre. Balakaha pravasam gantum ichanti.
Balakaha pravasam jigamishanti.
Jigamishanti. Samyak pravasam jigamishanti. Sannantanam vishaye ज्ञातुम् इच्छा अस्ति वा? ज्ञातुम् इच्छा उमादेवी. You have to unmute yourself.
Sorry. Sannantaha vishaye jignatuhu iccha.
Jignasa. Jnatum iccha to what is this?
Jignasa astiva.
Samyak. Jignasa astiva. Uttamam. So, bhoktum ichchaya piditaha shrigalaha sarvatra atitavan. Prasiddha katha asti. So, bhoktum ichchaya.
Bhubukshaya piditaha shrigalaha.
Samyak. Bhubukshaya piditaha shrigalaha sarvatra atitavan. Uttamam. Evam sannantanam prayogena vakyani rachayitum shakyani. तत्र एकः एव विषयः अग्रे उच्यते. पदनिर्णयः परस्मैपदं वा आत्मनेपदं वा किं भवेत् इति. नियमः सरलः पूर्ववत् सनः इति सूत्रम्. निजन्तेषु तु सर्वे धातवः उभयपदिनः इति भवति. अत्र तु पूर्ववत् पूर्वं धातोः यत् पदं तदेव पदं भवति इति सामान्यनियमः. अतः पठति पिपठिषति वदति विवदिषति परस्मैपदम् वन्दते विवन्दिषते शोभते शुशोभिषते आत्मनेपदं चेत् सन्नन्तमपि आत्मनेपदं भवति. अत्र अपवादाः सन्ति नाट् मेनि. एक्चुलि ओन्लि 4 धातूस् आर् एक्सेप्शन्स्. ज्ञा श्रु स्मृ दृशां सनः इति सूत्रमस्ति. सो ज्ञा श्रु स्मृ दृश् एतेषां धातूनां सन्नन्तरूपम् आत्मनेपदे भवति इति नियमः. सो दो जानाति इस् परस्मैपदी. जिज्ञासते डिजैर् टु नो इस् आत्मनेपदी. एवं शुश्रूषते दिदृक्षते. सो एते त्रयः धातवः अलोङ्ग् वित् द स्मृ धातु. स्मृ विल् बि सुस्मूर्षते. ओके, वेरि रेर् rarely used. किन्तु एतेषां धातूनां सन्नन्तरूपम् आत्मनेपदे भवति. सो दीस् आर् स्पेशल्. जिज्ञासते शुश्रूषते दिदृक्षते इत्यत्र आत्मनेपदम्. अन्यत्र धातोः यत् पदं तदेव पदं भवति. सो द सेम् पद. इफ् इट् इस् परस्मैपद सन्नन्त इस् आल्सो परस्मैपद. इफ् इट् इस् आत्मनेपदी सन्नन्त इस् आल्सो आत्मनेपदी. सिमिलर् इफ् इट्स् उभयपदी आफ् कोर्स् उभयपदी. ओके, सो तावदेव ज्ञातव्यम्. सो अत्र मुख्यः भागः समाप्तः. ऐ विल् कम्प्लीट् दिस् एण्ड् देन् देर् आर् अ फ्यू पीपल् हु आर् आस्किङ्ग् फार् अ फ्यू पायिण्टर्स् अण्ड् हौ वि गेट् सनन्त फार्म्स्. ऐ विल् गिव् अ फ्यू इण्डिकेटर्स् अगेन्. कम्प्लीट् दिस् थिङ्ग् इस् नाट् पासिबल् but a brief idea on how we do dvitva for those who are interested. Pariksha drishtya na apekshyate etavata alam. You just have to know those 3 forms and using them in sentences, that's all. But it will be interesting because at least for the majority parts it is fairly easy. There are some special forms. Tatra katham bhavati dvitvam katham bhavati iti kinchit vadami adau etat pashyamaha. सो सन् प्रत्ययः इच्छार्थकः डिजैर् इत्यर्थे भवति. सर्वेभ्यः धातुभ्यः भवति. सर्वेभ्यः धातुभ्यः सन् प्रत्ययः इच्छार्थे भवति. सन्नन्ताः पुनः धातवः भवन्ति. सो द सन्नन्त इस् अगेन् अ धातु. यस्मात् तिङन्तरूपाणि कृदन्तरूपाणि च निष्पाद्यन्ते. पिपठिषति पिपठिषा पिपठिषुः इति रूपत्रयम् अस्माभिः ज्ञातव्यम् मुख्यधातूनाम्. सो मुख्यानां धातूनां सन्नन्तरूपाणि दृष्टानि. वाक्ये प्रयोगः कथं क्रियते इत्यपि ज्ञातवन्तः. पदनिर्णयः मूलधातोः यत् पदं तदेव पदं सन्नन्तस्यापि भवति. जिज्ञासते शुश्रूषते दिदृक्षते इति अपवादाः तत्र आत्मनेपदम् एव भवति इति संक्षेपः. सो श्वः सायं काव्यभागस्य पठनम् अनुवर्तिष्यामः. So before we stop, I'll answer a few questions which are currently there. So bubhutsa, bodhum ichchava, am. Bodhum ichcha, desire to know, is bubhutsa. Mumukshuhu, is it refers to the person who desires release or salvation. Moksha is basically release, but it is used in the sense of being released from worldly bonds. So he who desires that is a mumukshu. Khaditum icchati will be chikhadishati. So is the meaning of shushrushate not mean to serve? As I said, it is used in both meanings. Shushrushate iti padavyavastha is done. Pipathishuhu, what is the lingam? It can be used in both strilinga and pullinga. Pipatishu, pipatishavaha. Like dhenu, dhenamaha if in strilinga. Or like guru shabda if it in pullinga. Okay, so now we will just brief this thing on this. Okay, so I've actually arranged this in order. If you look at the first few dhatus, they are all very regular. First thing in sannanta is that there is a dvitva. You have to double. What do we double is the first consonant and the first vowel of the dhatu. Okay, so dhatoho, if you have pat, so pa pat, that is the first step. So the dvitva for sannantas, you should always do it in steps. Okay, so we'll just quickly do it. So the step one is to do a dvitva. So whatever is the dhatu, the first consonant and the first vowel, we double. Okay, so mostly the first, sometimes the second, but usually that. So if you have pat, it becomes pa pat. Okay, so if it is da, it becomes da da. So vand becomes va vand. So chint becomes chi chint. Okay, if you have something like kship, where there is a sanyoga, we are still taking only the first consonant is k, first vowel is e. So ki kship. Okay, so if you have say badh, it will be ba badh. So the first step is to double the first consonant and the first vowel. Prathamaha hal and the prathamaha ach. So together, that is the first step in doubling for sannanta. Okay, even for lit, it is similar. But sannanta dvitva, after you do the dvitva, the karyas will vary between sannanta and lit. Ubhayatra samanam na bhavati. Okay, so you have to always bear it in mind. Doubling is the same. But after you double, what we call the abhyasa karya, what happens to the first letter? It is not just one step. So that will vary depending on the whether it is lit or if it is sun. So the second step, so first step is dvitvam. The second step is to do a harasva. Okay, if there is a dirgha, it will become a hrasva. Yadi dirghaha swaraha, for the first, after you have doubled, you will change only the doubled portion. You will not change the original dhatu. So, you should only then look at the what you have doubled. So, prathamaha hal, prathamaha ach. So, we have doubled it. So, next, there are some changes which may happen in that. Okay. So, that is only for the first letter and not the dhatu part. So, what is the one? If there is a dirgha swara, it becomes a hraswa. Say, da da ityasti chet da da. Ba badh ityasti chet babadh. Similarly, say if you have bhu, it will be bhu bhu and then bhu bhu. So, dvitiyam bhavati hraswah. Okay. Once you do it a few times, it will become automatic. Okay. Then, the next step is maha. If there is a maha prana, we change it to alpa prana. Yatra yatra swaraha dirghaha stichet hraswah bhavati. Vyanjanam mahapranam asti chet alpapranam bhavati. So bhu bhu will become bhu bhu. You will never hear a mahaprana letter as the first. Okay. So we can take a few more examples. Say khad, it becomes kha khad, then ahraswa khakhad, and the this one will become kakhad. The alpa prana of it. So similarly, if you have dha, so dha 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 da dha. So mahapranasya alpa prana, the corresponding alpa prana. So dirgha becomes hraswa and mahaprana becomes alpa prana. Okay. So whatever the gana, for this dvitva it does not matter which gana. Sarveshu ganeshu sannantasya dvitvam bhavati. Okay. So the juhotyari gana gets special dvitva only for latlakara. For lit, all dhatus get dvitva. Similarly for sun, all dhatus get dvitva. Tatra gana bhedaha nasti. It is applicable across all ganas. Okay. So prathamam dvitvam, the next step is to convert to hraswa and mahaprana. So swara, if it is dirgha, it becomes hraswa. Vyanjana, if it is mahaprana, it becomes hraswa alpaprana. Okay. So that is the second step. With this, some of the things will be ready. Okay. Now, sechi chint is done. So babadh, bubhu is done. For sannantas, there is one more special thing. For a, if there is an a at the beginning, it becomes e. This is very specific to sannantas only. So papath becomes pipath. Dada becomes di. Okay, da is a wrong dhatu because there is something special there. It becomes dida, but then the akara is dropped. So vavand becomes vivand. Chichint remains as it is. There is no change. So babadh becomes bibadh. Yatra yatra adav akaraha asti akarasya ikaraha bhavati. So kikhad. And then didha. Adav akarasya ikaraha bhavati. So a becomes e. Similarly, there is a few vyanjana transformations. K gets ch, g gets j, and h also gets j. That's all. So k, so wherever there is k, it becomes ch. So chikhadishati. So if there is g, it will become j. So kuhoshchuhu. Kavargasya hakarasya cha chavarga adeshaha bhavati. Okay. So these transformations, a becomes e, kavarga and hakara becomes chavarga. So if we know this, you can predict 90% of the sannanta forms. There are a few exceptions. So pat, pi pat. So papath, because it is a, it becomes pipath. Gam, so it becomes ga gam, and then ga becomes ja and a becomes e. So jigam. Raksh, ri raksh. Dhav, di dhav. So dha dhav, mahaprana and then ikara. Khad, chikhad. Vand, vivand. Mod, mudadhatuhu, so it becomes mumud. So shushubh, vivardh. So it is easier if you look at the dhatu. So pa becomes pa, pa, hraswa and ikara. Pipa, jya, jya ityatra, the first hal is ja. So ja, ja, and then ja, jya, jigya, jigyasate. Ya becomes yiya. Dr becomes didr. Vach, vivach. Pipach, mumuch. So the e comes only if there is a a. If there is no a, the swara will be retained. Mumuch, bubhuj, yuyuj. So chikr. So these are a bit special forms. The dvitva is still the same. Chikr, titr, su, shwap. Sushupsati, that is a special dhatu. Bubhu, lilikh, di, da, and these are all something special. So shru becomes shu, shru. Okay. So dvitva for 95% times is like this. So we are only talking about the first part. Okay. So could you please explain janati once again? Janati is very easy. So there is janati has gya iti dhatuhu. So gya is j, ny, a. So always you take the first swara and the first vyanjana. So it is ja, gya when you double. So ja becomes j, gya and then jigya. Hraswa, ikara. Okay. So dvitva and then hraswa alpa prana and then these letter transformations. If you do that, the first part of the sannanta is ready. For the second part, that is to know what comes fully, it is very easy for most dhatus if you look at the ritlakara forms. So pathishyati, if you take off the ya, pathishyati. So p pathishyati. Ji gamishyati, jigamishati. So rakshishyati, rakshishati. So you take the doubled part and then the ritlakara. So dvitva plus ritlakara forms will help you predict the sannanta in a majority of the cases. Okay. So dhavishyati. So dhavishati and the di comes from the dvitva. Didhavishati. So khadishyati. So khadishati, take off the ya and put shya and take the sh. So khadishati, chikhadishati. So vandishyate, so vandishate, vivandishate. So modishyate, mumodishate. Shobhishyate, so shobhishate, shushobhishate. Vardhishyate is the rit. So vivardhishate. Pasyati, so pasati, pipasati. Gyasyati, so gyasate, jigyasate. Yasyati, so yasati, yiyasati. So for a majority of the dhatu, say vakshyati, vivakshati. Pakshyati, pipakshati. Didrakshate is slightly special. There is drakshyati, but there is a... that ra does not come here. So there are some special dhatus. I'm not saying 100% of rules, but at least 70 to 80%. So learn the rules for dvitva and look at the ritlakara forms. It is easy to predict sannanta. Okay. So of course, if it is rikara or rikaranta, it becomes that ir. So chikirshati, titirshati. Jihirshati, hru becomes jihirshati and so on. Okay. So the rest, there are some special rules, of course. Ditsati, Jigishati. There are some very special rules. For the others, this is the summary. One is to learn to do Dvitva. Dvitva is double the first consonant and first vowel. So Hrasva for the vowel and Alpaprana for the consonant. Then for Sannantas, A becomes E. So K, G, H convert to Chavarga. Okay. So this is a very brief overview because some people were very specifically asking about how we get to the Sannanta forms. They are a bit, it is a bit long process, but it is possible, especially if you get familiar with the forms, it is possible to derive. Okay. So, Panini has Anubandhas for everything, but none for Dvitva. Yes, Dvitva is not based on Anubandha. It is based on the whole thing. That is, for Sun, it is Dvitva. It is not for, say, Nit. It is not a general karya. It is very specific for certain pratyayas. So, he gives them with specific sutras for those pratyayas. Okay. What is the dhatu in vidadhita? It is dhadhatu, dadhati. So, dadhita, dadhati is an ubhayapadi dhatu. So, in atmanepadi, you have vidadhita. What are kridanta forms of pipathisha and pipathishuhu? They themselves are kridantas. Pipathisha is a kridanta shabda and pipathishu is a kridanta shabda. So, you cannot further make kridantas out of them. What is the krit pratyaya? Yes, I think that was there in one of the slides. So, in pipathisha, it is the a pratyaya. So, a is the pratyaya. And then in pipathishu, u is the pratyaya. Okay. Will this also be added in the recording? As in, you want it as slides? Well, I can add it. I have not added it, but can be done. I'll do it. Okay. So, can you please explain sandhis involved in nich and shap? Okay. So, nich and shap is like it's very common thing. Sorry. Just one moment. So, for example, you have chori is the nijanta and then there is the a of shap. So, there is guna for the nijanta. So, guna means E becomes A. So, chore plus A. That is guna. We call it sarvadhatuka ardhadhatuka yoho iti gunaha bhavati. Then there is yantavanta desha sandhi or the ayadi sandhi. A plus A is aya. Okay. So, choraya. This is yantavanta desha sandhi. A normal sandhi. Is there a list of pratyayas with its meanings, as there are a load of pratyayas? There are some books which give a list of, say, krit pratyayas and tadhita pratyayas. I mean, mostly they are research works. I can't remember offhand any handy reference book which actually has the meaning of pratyayas. Can you add tadhita to sannantas? Question. You cannot directly add because sannanta is a dhatu. Okay? And tadhitas are added only to subantas. So if you convert this sannanta to a pratipadika or a subanta, that is you can add the kridantas to make it a subanta, then you can possibly add the tadhita pratyayas. Okay. For example, if there is pipathisha, pipathisha is a subanta. So, pipathisha asya asti iti pipathishavan. is a possible tadhita. From sun you add krit to make it subanta, and then you can add a tadhita. Okay. So pratyaya kosha, correct. So Chandrasekharan Mahodaya is saying that there is pratyaya kosha. Is it available as a searchable, this stardict, or maybe on archive? So I'll try and see if I can get a link to that pratyaya kosha, which gives the list of pratyayas with their meanings. Any other questions? Total number of pratyayas in Panini? Well, there are close to 500 tadhitas, about 150 krit, which is 650. The rest put together should be barely another, say, not more than 100. As in, you have 21 of sup, 18 of ting, and you have 8 stri pratyayas, so that is 30, 48, and then a few vikarana pratyayas. So, so around 700 plus, probably. Okay, I think we have overshot our time by quite a bit today. So we'll stop here. If there are any other questions, I'll take in the next class. Yena akshara samamna yamadhigamya maheshwarat kritsnam vyakaranam proktam tasmai paninaye namaha makyakaram vararuchim bhashyakaram patanjalim. Sorry, I lapsed to my original mangalam of vyakarana shastra. Because we were talking of Vyakarana. Paninim Sutrakaram cha pranatosmi munitrayam. Dhanyavadaha.